अथ द्वादशः पाठः। सुग्रीवस्य हनुमान् नाम्ना सेनापतिरभवत्। स वायोः पुत्रः सन् बलवान् वीर्यवान् च। स वानरराजस्याज्ञया रामस्यावनाय सर्वं जम्बूद्वीपं भ्रमन् सीतामन्वैच्छत्। बहु च भ्रान्त्वा तां लङ्कायां रावणेन बद्धामविन्दत्। तत्र गत्वा जनकपुत्री तेनाश्वासिता भर्तेहागमिष्यति रावणं मारयिष्यति त्वां मोक्ष्यति चेति तां हनुमान् उक्तवान्। तथ नगरं दग्धवान् द्वीपाच्च निर्गतवान्। रामस्यान्तिकं च पुनरागत्य तं सर्वं वृत्तान्तमवेदयत्।